द्वादशोऽध्यायः
आहारस्य पचनाय बहून् समिद्धहवने लब्धध्वम् फलानि लभ्यमानान् सेवकान् वने अपश्यम् पच्यमानः आहारः बालैः न खाद्येत गुरौ वाचं वदिष्यति नराः बोधेयुः नृपे भूमिं रक्षति द्विषः ग्रामं न जयन्ति गुरवः बालान् शिक्षयेयुः बालाः च गुरून् सेवेरन् बालासु तुष्यत्सु पितरौ अपि तुष्यतः फलेषु वृक्षात् लप्स्यमानेषु आहारं पक्ष्यावः यदि नृपः द्विभ्यः ग्रामं रक्षेत् नरैः पुनः पुनः शस्येत